नमस्कृत्य रामं महादेवदेवं भवानी कटाक्षे क्षणानन्दजालम् सदालोकलोलं महानृत्यलीलं भजे पार्वतीशं महाताण्डवेशम् भवान्तं भजेतं हृदं ते महान्तं भवाब्धिं तरन्तेन्दुकुन्दावभासम् तमीशं रमेशर्चिताङ्घ्रिद्वयाब्जं भजे पार्वतीशं महाताण्डवेशम् जटाजूडसोमं ललाटाक्षभीमं नटाचार्यवामं सदा पूर्णकामम् सदा वामभामं हृदानन्दरामं भजे पार्वतीशं महाताण्डवेशम् धराशीशवागीश नागेश मुख्यैः सुरैः सेवितं तालवीनादिहस्तैः पदाघात सङ्घात संहृष्ट दैत्यं भजे पार्वतीशं महाताण्डवेशम् रणन्नूपुरद्वन्द्वहारि स्वकीयाङ्घ्रिपद्मद्वयाम्भोरुहा पूर्णविश्वम् नमन्मध्यसाची कृतस्वाङ्घ्रिपद्मं भजे पार्वतीशं महाताण्डवेशम् शिवाशेषबन्धो कृपापूर्णसिन्धो शिवानन्दसन्दोगसन्धानबन्धो महाश्चर्यनृत्योल्लसत्पादपद्मं भजे पार्वतीशं महाताण्डवेशम् कलिप्रान्तसम्बन्धि सौवर्णसूत्रं प्रलम्बप्रकीर्णोरुघण्डानिनादम् महासिंहनादं प्रभिन्नाब्दजालं भजे पार्वतीशं महाताण्डवेशम् भ्रमद्बाहुदण्डं गदापूर्णरत्नं रभोक्षिप्तमार्तण्डकोटिप्रकाशम् महाहीशभूषं सुरेशं महेशं भजे पार्वतीशं महाताण्डवेशम् महानृत्यसंजातभीमाट्टहासं महायोगिहृत्पद्मकोशावभासम् महानागयज्ञोपवीतावभासं भजे पार्वतीशं महाताण्डवेशम् भवानीशभूतेश भर्गासुरारे भवारे पुरारे सुरेशार्चिताङ्घ्रे न जानाति युष्मत्स्वरूपं जनोऽयं भजे पार्वतीशं महाताण्डवेशम् मुकुन्दाब्जहस्तोल्लसन्त्रासनादं नमद्देव बृन्दं सुहृद्योगिवृन्दम् लसत्कुन्ददन्तं शिवानन्दगन्धं भजे पार्वतीशं महाताण्डवेशम् जटाजूडगङ्गा तरङ्गोर्मिचञ्चत्सहस्रांशुजातावृताकाशमीशम् शरच्चन्द्रहासं सुकर्पूरभासं भजे पार्वतीशं महाताण्डवेशम् स्फुरन्मुद्रिकारत्नराजत्कराघ्रिं रणत्स्वर्णकोटीरराजद्भुजौघम् लसन्मध्यसम्बद्धपट्टाभिरामं भजे पार्वतीशं महाताण्डवेशम् स्फुरन्तं नदन्तं महान्तं दिगन्तं वसन्तं महाश्चर्यवासोनितान्तम् अनन्तं भवान्तं भवानी हृदन्तं भजे पार्वतीशं महाताण्डवेशम् महादेव देवादिदेवेश शम्भो भवन्तं विना देवमन्यं न जाने क्षणाराधनेनाशुतोषं महेशं भजे पार्वतीशं महाताण्डवेशम् नमस्ते नमस्ते शिवानन्दकीर्ते नमस्ते नमस्ते भवानन्दमूर्ते नमस्ते नमस्ते शरण्यैकमूर्ते नमस्ते नमस्ताण्डवाडम्बराय नमस्ते नमस्ते जगज्जन्मकर्त्रे नमस्ते नमस्ते नमः पालनेत्र नमस्ते नमस्ते हरायागहर्त्रे नमस्ते नमस्ताण्डवाडम्बराय नमः पार्वती प्राणनाथाय तुभ्यं नमः सर्वलोकैकनाथाय तुभ्यं नमो विष्णुहृत्पद्मकोशाय तुभ्यं नमस्ते नमस्ताण्डवाडम्बराय नमो दिव्यकैलासवासाय तुभ्यं नमो दिव्यरत्नाभिभूषाय तुभ्यं नमः सर्वयज्ञोपवीताय तुभ्यं नमस्ते नमस्ते नमः शङ्कराय नमः शम्भवे टङ्कवज्राङ्किताय नमो भक्तलोकैकपालाय तुभ्यम् इदम् दुर्जटे स्ताण्डवस्तोत्र राजम् प्रभाते पठन्ति प्रसन्नाञ्जनेकः सुरेन्द्रादिभोगानि हैवास्य भुक्त्वा तदन्ते लभन्ते शिवानन्दलोकम्।